एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रतिनिधि सभायाः गतदिवसीयो पवेशेन एतद् विक्रमवर्षीयाणि आर्थिक विधेयकम् राष्ट्र ऋणोत्थापन विधेयकम् ऋण न्यास पञ्चविंश संशोधन विधेयकम् च पारितीकृतानि सन्ति। अर्थमन्त्रिणा जनार्दन शर्मणा एतद् विधेयकत्रयम् पारितीक्रियताम् इत्युदीर्य प्रस्तुताः प्रस्तावाः उपवेशेन बहुमतेन पारितीकृताः सन्ति। तत्पूर्वम् एतानि विधेयकानि आदृत्य विहिते विमर्शने सांसदैः अत्यधिक रूपेण करः वर्धितः, जनतायै सहायता प्रदानस्य वैपरीत्येन पीडनं विहितम्, मूल्यवृद्धेः नियन्त्रणस्य प्रयासो न विहितश्चेति विषयाः उत्थापिताः आसन्। उपवेशे सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री शर्मा देशः कथं सबलो भवतीति विषयं ध्यात्वा आयव्ययकम् आनीतमिति अवोचत। अर्थमन्त्री शर्मा व्यय वहनाय राजस्व संकलनम् अपरिहार्यम् अस्तीति हेतोः धूमवटिका तम्बाकु सहितेषु विलासितायाः वस्तुषु च करः वर्धितः सन्नपि दैनिकोपभोग्य वस्तुषु स्वदेशीयोद्योगेषु च आघात सर्जनात्मकं कार्यं न कृतमिति समस्पष्टयत। अर्थमन्त्रिणा शर्मणा समृद्धेः प्राप्त्यर्थम् आर्थिक स्रोतसो महत्वं भवतीति हेतोः आन्तर स्रोतसा सह ऋणस्य आवश्यकता स्वाभाविकी मन्तव्येति च स्पष्टीकृतम्। प्रतिनिधिसभायाः उपवेशेन एतद् विक्रमवर्षीयं नेपाल प्रहरी प्रदेश प्रहरी कार्यसञ्चालन सुपर्यवेक्षण समन्वय प्रथम संशोधन विधेयकं बहुमतेन स्वीकृतं वर्तते। उपवेशे गृहमन्त्रिणा बालकृष्ण खाण इत्यनेन विधेयकमिदं पारितीक्रियताम् इत्युक्त्वा प्रस्तावः प्रस्तुतः आसीत्। एतद् विषयके विमर्शने भागं गृह्णन्तः सांसदः नेपाल प्रहरी प्रदेश प्रहरी कार्यसञ्चालन सुपर्यवेक्षण समन्वय प्रवृत्ति विधेयकानि अवशिष्टानि सन्तीति हेतोः अत्यावश्यकानि विधेयकानि शीघ्रं निष्कर्षे प्रापणीयानीति धारणां व्यक्तवन्तः। गतदिवसीय एव उपवेशे विधिन्याय मानवाधिकार समितेः सभापतिः कृष्ण भक्त पोखरेलः समितेः एतद् विक्रमवर्षीयं वार्षिक प्रतिवेदनं प्रास्तौत। तत्पूर्वम् उपवेशस्य प्रारम्भे प्रमुख प्रतिपक्षिणा नेकपा एमाले दलेन शिला तैलीय पदार्थेषु विहितायाः मूल्यवृद्धेः कारणं सर्वकारेण सदने ज्ञापनीयमिति अभियाचितम् आसीत्। नेकपा एमाले दलस्य संसदीय दलस्य पक्षतः सांसदः पद्मा कुमारी अरियालः मूल्यवृद्धेः कारणं सदने ज्ञापयितुं निर्देशनम् अभियाच्य सन्तोषजनके उत्तरे नागते सदनम् अग्रे वर्धितुं न शक्नोतीति अवोचत। तदनुपदमेव प्रमुख प्रतिपक्षिणः नेकपा एमाले दलस्य सांसदाः स्वस्थानात् उदतिष्ठन्। ततः सभामुखेन अग्निप्रसाद सापकोटा विदेन मूल्यवृद्धेर्विषये सर्वकारं निर्दिशता मूल्यवृद्धेः तथ्यं सदने प्रस्तोतुमपि निर्दिष्टम्। प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा एकवादने वसति। राष्ट्रिय सभायाः ह्यस्तनोपवेशे एतद् विक्रमवर्षीय विनियोजन विधेयकस्य विभिन्न शीर्षकाणि आधृत्य मन्त्रालयगत विमर्शनम् अचलत। विमर्शने सांसदः वामदेव गौतमः अभाषत कृषिक्षेत्रस्य माध्यमेनैव समाजः परिवर्तयितुं शक्यते, तथापि आयव्ययके समाजवादोन्मुखाः कार्यक्रमाः न सन्ति। नेपाली कांग्रेस दलस्य सांसदः प्रकाश पन्थ विधि मन्त्रालयेन न्याय संसद सम्बद्ध विषयेषु बहूनि कार्याणि कर्तव्यानि, न्यायप्रणाली प्राप्तियोग्या सर्वसुलभा च विधेया, न्यायिक प्रकरणे योधने एव वयसः समाप्तेः सम्पदः समाप्तेश्च प्रवृत्तिः निरसनीया, सत्यनिरूपण मेल विषये सर्वकारेण यथासमयं चिन्तनीयमिति च निगद्य सर्वकारस्य ध्यानम् आकर्षयत। उपवेशे सांसदाः देवेन्द्र दाहालः, खिमलाल देवकोटा, विमला राई च सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। सभायाः अपरोपवेशः अद्य दिवा एकवादने पुनर्वसति। अद्य अन्तर्राष्ट्रिय योग दिवसः अवसरेऽस्मिन् राष्ट्रपतिना विद्यादेवी भण्डारिणा नेपालस्य प्राचीन सभ्यतया जीवन दर्शनेन च सह अभिन्न रूपेण सम्पृक्तस्य योगस्य जीवनोपयोगि साधनायाः रूपेण सर्वैः ग्रहणस्य विषयः हर्षस्य विषयोस्तीति उक्तं वर्तते। अवसरेऽस्मिन् राष्ट्रपतिना भण्डारिणा प्रदत्ते शुभकामना सन्देशे स्वदेशे विदेशे च वर्तमानानां सम्पूर्ण नेपालीनां सुख शान्ति सुस्वास्थ्यानि अभिलष्य योगेन सुखी समुन्नत शान्तिपूर्ण समाजस्य निर्माणाय सर्वेभ्यः सफलता प्रदीयते इत्युक्तमस्ति। नेपाली कांग्रेस दलस्य सभापतिना प्रधानमन्त्रिणा शेरबहादुर देवाविदेन सह दलस्य महामन्त्रीद्वयम् गगन कुमार थापा विश्व प्रकाश शर्मा च ह्यो मिलित्वा दलस्य भातृसंगठनाना अधिवेशनस्य एसपीपी नाम्नः अमेरिकादेशीय राज्य सहभागिता कार्यक्रमस्य आबद्धतायाश्च विषये विमृष्टवन्तौ। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे विहिते मेलने महामन्त्रिणौ थापा शर्मा च राष्ट्रिय सहमतिम् सन्धार्य एसपीपी नाम्नि अमेरिकादेशीय कार्यक्रमे असहभागितायै अमेरिकादेशाय पत्राचारम् कर्तुम् अनुरुद्धवन्तौ। दीर्घकालात् असम्पन्न महाधिवेशनानाम् दलस्य भातृ संघटनानाम् अधिवेशनस्य वातावरणम् निर्मातुम् महामन्त्रिणौ अनुरुद्धवन्तौ। सर्वकारेण रेलमार्गाय अधिगृहितायाः भूमेः क्षतिपूर्तिम् जनतायै प्रदातुम् महामन्त्रीद्वयम् थापा शर्मा च प्रधानमन्त्रिणः ध्यानाकर्षणम् कृतवन्तौ। नेपाल कम्युनिष्ट पार्टी एकीकृत समाजवादी दलस्य पोलिट ब्यूरो निकायस्य केन्द्रीय समितेश्च उपवेश अस्यैव आषाढस्य दशमे एकादशे च दिवसयोः काष्ठमण्डपे वस्ता। स्थानीय स्तर निर्वाचनस्य समीक्षया सह प्रतिनिधिसभायाः प्रदेशसभा नाम च आगामिनि निर्वाचने दलस्य प्रत्याशिनोः विजयिनः कारयितुम् आराष्टम् सञ्चालनीयानाम् कार्यक्रमाणाम् कार्ययोजनायाश्च आवश्यक रणनीतेर्विषये उपवेशे विमृक्ष्यते इति दलस्य केन्द्रीय प्रचार विभागस्य सदस्यः कृतु भण्डारी अज्ञापयत्। उपवेशे केन्द्रीय नेतृभिः सम्बद्ध क्षेत्राणाम् प्रदेशेषु संगठनस्य अवस्थायाः संगठन विस्ताराय कार्ययोजनायाश्च विषयाः प्रस्तुष्यन्ते। राष्ट्रस्य सामयिक अवस्थायाः विषयाः विमृक्ष्यन्ते च। गृहमन्त्री बालकृष्ण खाँड वदति चिन्ताम् क्रोधम् आक्रोशम् द्वेषम् विद्वेषम् च नियन्त्रयितुम् योगाभ्यासः कर्तव्य। अन्तर्राष्ट्रिय योग दिवसस्य अवसरे नक्सालवर्तिनी प्रहरी प्रधान कार्यालय ह्य आयोजिते योगाभ्यास कार्यक्रमे गृहमन्त्री खाँड अवदत् मानव जीवनम् सन्तुलितम् शान्तम् फलदायी उत्पादन मूलकम् च विधातुम् योगः प्रभावकारी भवति। शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः वदति गुणस्तरीय शिक्षायाः विकासाय स्थानीय सर्वकारस्य भूमिका महत्वपूर्णा भवति। राष्ट्रिय परीक्षा समितौ ह्य आयोजिते कार्यक्रमे असौ अवदत् विद्यालय स्तरस्य शैक्षिक गुणस्तरस्य सुधाराय स्थानीय सर्वकारस्य भूमिका महत्वपूर्णा प्रभावकारिणी च भवति। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की मुस्लिम धर्मावलम्बी नाम पवित्र तीर्थस्थले मक्का मदिना धामनी हज यात्राम गन्तुकामेभ्य हजयात्रिभ्य प्रास्थापनिका अभिवादनम् ह्य अर्पयत। असौ हजयात्रीणाम् प्रस्थान समये त्रिभुवनान्तर्राष्ट्रिय विमानस्थलम् यत्य प्रास्थापनिका अभिवादनम् अर्पयत। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः वदति देशम् सफलम् विधातुम् अभियानम् सञ्चल्यमानम् वर्तते। तनहु जनपदस्य नैज निवासे संचारकर्मीभिः वरिष्ठ नेता पौडेलः अवदत् देशम् सफलम् समृद्धम् च विधातुम् लक्ष्यैकम् विधेयम् इति समाचाराः।